इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। भारत इटली देशौ व्यापार निवेश आपूर्ति श्रृंखलां सुदृढ़ीकर्तुं भारत मध्य पूर्व यूरोप आर्थिक वीथेः उत्तरोत्तर विकासार्थं परस्परं सहमतिं प्रकटितवन्तौ। सर्वकारेण कस्यापि सौन्दर्य प्रसाधनोत्पादनस्य सूचिका भेषजत्वेन प्रयोगः उपभोक्तृभ्यः विशेषज्ञेभ्यः अथवा सौन्दर्य चिकित्सालयेभ्यः सर्वथा निषेधितम्। स्वास्थ्य सेवा महानिदेशालयेन इबोला संक्रमणेन प्रभावित देशेभ्यः आगच्छद्भ्यः अथवा पारगमनं कुर्वद्भ्यः यात्रिणां कृते कश्चन विशेष स्वास्थ्य परामर्शः प्रसारितः। तमिलनाडु राज्ये मुख्यमन्त्रिणः सी जोसेफ विजयस्य नेतृत्वयुते मन्त्रिमण्डले द्वात्रिंशत् जनाः सम्मिलिताः, येषु चतस्रः महिला मन्त्रिणः सन्ति। अपि च आईपीएल क्रिकेट स्पर्धायाम् अद्य सायम् अहमदाबाद नगरे गुजरात टाइटन्स तथा चेन्नई सुपर किंग्स दलयोः मध्ये प्रतिस्पर्धा भविष्यति। अथ वार्ताः विशदीकृत्य। भारत इटली देशौ व्यापार निवेश आपूर्ति श्रृंखलां सुदृढ़ीकर्तुं भारत मध्य पूर्व यूरोप आर्थिक वीथेः उत्तरोत्तर विकासार्थं परस्परं सहमतिं प्रकटितवन्तौ। एकस्मिन् संयुक्त वक्तव्ये भारतस्य प्रधानमन्त्री नरेन्द्र मोदी तथा च तस्य इटली समकक्षीया जॉर्जिया मेलोनी इत्येतौ भारत मध्य पूर्व यूरोप आर्थिक कॉरिडोर इत्यत्र सहकार्याय स्वकीय प्रतिबद्धतां ज्ञापितवन्तौ। अस्याः परियोजनायाः भूरिशः प्रशंसां कुर्वन्तौ उभौ नेतारौ ऐषमः 26,000+ अस्य उपक्रमस्य प्रगतये आईमेक मन्त्रिस्तरीय गोष्ठ्याः प्रथमायोजने दृढपदक्षेपं स्वीकर्तुं प्रोत्साहितवन्तौ। रोमनगरे प्रधानमन्त्रिणा नरेन्द्र मोदिना सह आयोजिते संयुक्त संवाददातृ सम्मेलने इटली देशस्य प्रधानमन्त्री जॉर्जिया मेलोनी आईमेक इत्येतं यूरोप मध्य पूर्व भारत देशान् संयोजयितुं कश्चन महान् आर्थिक सम्पर्क मार्गः वर्तते इति वर्णितवती। तया प्रोक्तं यदस्मिन् व्यापार निवेश आपूर्ति श्रृंखला स्थैर्यं दृढ़ीकर्तुं महत् सामर्थ्यं वर्तते। मेलोनी इत्येषा अवोचत् यत् क्षेत्रीयान्तर सम्पर्कस्य सुदृढीकरणार्थं सर्वोपरि प्राथमिकता अस्ति तथा च उभावपि देशौ अस्य वीथि मार्गस्य विकासं दृढतया समर्थयतः। उभावपि प्रधानमन्त्रिणौ पुनरपि प्रोक्तवन्तौ यत् नवोन्मेषः, विज्ञानं, प्रौद्योगिकी च भारत इटली देशयोः मूलाधाराः सन्ति। अत्रावसरे प्रधानमन्त्री नरेन्द्र मोदी प्रोक्तवान् यत् इटली देशः स्वस्य विशिष्टाभिकल्पनायै, सूक्ष्मता कौशलाय च विश्वविश्रुतोऽस्ति। अपरत्र भारतस्य ख्यातिः विशालतायै, प्रतिभायै, सुलभ नवोन्मेषाय च वर्तते।
हमने हमारी भावी साझेदारी को और सशक्त बनाने के लिए विस्तृत रूप से चर्चा की। भारत इटली ज्वाइंट स्ट्रेटेजिक एक्शन प्लान 2025-2029 हमारी साझेदारी को एक प्रैक्टिकल और फ्यूचरिस्टिक ढांचा प्रदान करता है। हम इस पर समयबद्ध तरीके से आगे बढ़ रहे हैं। हमारे साझा प्रयासों में द्विपक्षीय व्यापार 20 बिलियन यूरो के लक्ष्य की ओर तेजी से बढ़ रहा है।
सर्वकारेण प्रोक्तं यत् कस्यापि सौन्दर्य प्रसाधनोत्पादनस्य सूचिका भेषजत्वेन प्रयोगः उपभोक्तृभ्यः विशेषज्ञेभ्यः अथवा सौन्दर्य चिकित्सालयेभ्यः सर्वथा निषिद्धो वर्तते। केन्द्रीय औषध मानक नियन्त्रण संघटनेन स्पष्टीकृतं यत् प्रसाधन सामग्र्यः केवलं मानव शरीरे घर्षणाय, सेचनाय, प्रोक्षणाय अथवा विकिरणाय च उद्दिष्टाः सन्ति। संघटनेन प्रोक्तं यत् विक्रयण वितरणार्थं प्रसाधनानां निर्माणं तथा च आयात प्रक्रिया प्रसाधन नियम 20/20 इत्यस्य प्रावधानैः नियन्त्रिता भवति। CDSCO इत्यनेन दृढीकृतं यत् प्रसाधनोत्पन्नेषु प्रतिबन्धित तत्त्वानाम् उपयोगः नामपत्रे भ्रामकोक्तिः, संक्रमणोपचारार्थं सौन्दर्य प्रसाधनानां प्रयोगः तथा च सूचिका भेषज माध्यमेन एतेषाम् अनुप्रयोगः औषध तथा प्रसाधन अधिनियमन नियमानां गंभीरं उल्लंघनं मन्यते, यस्य कृते दण्डविधानं निश्चितं वर्तते। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। स्वास्थ्य सेवा महानिदेशालयेन इबोला संक्रमणेन प्रभावितेभ्यः देशेभ्यः आगम्यमानानां अथवा तन्मार्गेण गच्छतां यात्रिणां कृते कश्चन विशेष स्वास्थ्य परामर्शः प्रसारितः। स्वास्थ्य परामर्शानुसारं ये यात्रिणः कांगो प्रजातांत्रिक गणराज्यं, युगांडा तथा दक्षिण सुडान सदृशेषु उच्च संकटयुक्तेषु देशेषु भ्रमणं कृतवन्तः तथा च येषु ज्वरः, शिरोवेदना, पीडा, अनिर्धारित रक्तस्रावः, वमनं चेत्यादीनि लक्षणानि दृश्यन्ते ते सद्य एव चिकित्सकीय सहायतां प्राप्तुं साग्रहं सूचिताः सन्ति। महानिदेशालयेन यात्रिणः अपि सचेतिताः यत् ये केऽपि शंकितस्य अथवा पुष्टीकृतस्य इबोला संक्रमितस्य रक्तेन, शरीरद्रवेण वा सह प्रत्यक्ष सम्पर्कं स्थापितवन्तः तैः प्रवास निर्गमन प्रक्रियायाः पूर्वमेव विमानपत्तन स्वास्थ्याधिकारिणे अथवा स्वास्थ्यपटलस्य पुरतः अनिवार्यरूपेण विवरणं प्रदातव्यम्। तमिलनाडुराज्ये जोसेफ विजयस्य नेतृत्वे शासनेन अद्य स्वमन्त्रिसभायाः विस्तारः कृतः, येन राज्ये संयुक्तमन्त्रिसभायाः निर्माणस्य मार्गः प्रशस्तः। कांग्रेसदलस्य द्वाभ्यां सह 23 नूतनमन्त्रिणः मन्त्रिमण्डले समाविष्टाः। अनेन नूतनेन विस्तारेण मन्त्रिमण्डलस्य संख्या 32 यावद् वर्धिता, यस्मिन् मुख्यमन्त्री सी जोसेफ विजयः अपि अन्तर्भवति। कांग्रेस दलम् अधुना प्रायः 6 दशकानाम् अनन्तरं राज्य मन्त्रिसभां प्रति प्रत्यागतः अस्ति। 67.9% वर्षात् परं प्रथमवारम् एतत् राष्ट्रियदलं तमिलनाडुराज्यस्य मन्त्रिमण्डले प्रतिनिधित्वं प्राप्नोति। नवविस्तारित मन्त्रिसभायां 4 महिला मन्त्रिणः अपि सन्ति। केरल विधानसभायाः नवगठितस्य प्रथमसम्मेलनस्य आरम्भः अद्य तिरुवनन्तपुरम नगरे अभवत्। जी सुधाकरन् इत्येषः नवनिर्वाचितान् सदस्यान् शपथं प्रदत्तवान्। अध्यक्षपदस्य निर्वाचनं श्वः भविष्यति। सत्तारूढेन UDF इत्यनेन तिरुवञ्चूर राधाकृष्णन् इत्येषः तस्मै पदाय नामाङ्कितः। विधानसभायां भाजपादलस्य 3 सदस्याः सन्ति, अतः स्पर्धात्मक निर्वाचनस्य अपेक्षा वर्तते। बी गोपकुमारः तस्य दलस्य अभ्यर्थिरूपेण घोषितः अस्ति, किन्तु विपक्षः LDF इदानीमपि निर्वाचनविषये स्वस्य निर्णयं न उद्घाटितवान् इति। पश्चिमबंगालसर्वकारेण सम्पूर्णे राज्ये सर्वेषु मदरसा इत्येतेषु तत्क्षणप्रभावेण वन्दे मातरम् इत्यस्य गानम् अनिवार्यं कृतम्। अयमादेशः मदरसा शिक्षा निदेशालयेन प्रसारितः। अधिसूचनायाः अनुसारम् एषः निर्देशः सर्वकारीय प्रारूप मदरसा इत्येतेषु, सर्वकारीय अनुदान प्राप्त मदरसा इत्येतेषु, मान्यता प्राप्त मदरसा इत्येतेषु तथा च अल्पसंख्यक कार्यमन्त्रालयस्य एवं मदरसा शिक्षाविभागस्य अन्तर्गतं कार्यरतासु अनुमोदितासु शिशुशिक्षाकेन्द्रेषु, माध्यमिक शिक्षाकेन्द्रेषु च प्रवर्तिष्यते। रक्षामन्त्री राजनाथ सिंहः तथा दक्षिण कोरिया देशस्य देशभक्ति भूतपूर्व सैनिक कार्यमन्त्री क्वोन ओहयोल च अद्य सियोल नगरस्य इमजिंगक उद्याने भारतीय युद्ध स्मारकस्य संयुक्त रूपेण उद्घाटनम् अकुरुताम्। IPL क्रिकेट क्रीडायाम् अद्य सायंकाले अहमदाबाद नगरस्य नरेन्द्र मोदी क्रीडांगणे गुजरात टाइटन्स दलं चेन्नई सुपर किंग्स दलं सम्मुखीकरिष्यति। क्रीडा सायं 7:30 आरभ्यते। गुजरात टाइटन्स दलेन पूर्वमेव अन्तिम चतुष्क क्रीडायां स्वस्थानं निश्चितम्। चेन्नई सुपर किंग्स इत्येतत् दलं च अंकतालिकायां 4th प्राप्तुं स्वस्य संभावनां सुदृढीकर्तुं प्रयतते। अत्रान्तरे गतरात्रौ कोलकाता नगरस्य एडन गार्डन मध्ये कोलकाता नाइट राइडर्स दलेन मुंबई इंडियंस दलं 4 स्तोभैः पराजितम् इति वार्ताः।